Book 2
55
55
55
Làm việc
Cảm
Cảm
Bạn làm công việc gì?
Áp kya kaam karte hain?
आप क्या काम करती हैं?
Chồng tôi là bác sĩ.
मेरे पति डॉक्टर हैं.
मेरे पति डॉक्टर हैं.
Tôi làm y tá nửa ngày.
मैं आधा दिन परिचारिका का काम करती हूँ.
मैं आधा दिन परिचारिका का काम करती हूँ.
Chúng tôi sắp được tiền hưu trí.
Jald hi hum pension lenge.
Jald hi hum pension lenge.
Nhưng mà thuế cao.
Lekin kar bahut zyada hai.
Lekin kar bahut zyada hai.
Và bảo hiểm sức khỏe cao.
और बीमा ज्यादा है
और बीमा ज्यादा है
Bạn muốn trở thành gì?
तुम क्या बनना चाहते हो
तुम क्या बनना चाहती हो
Tôi muốn thành kỹ sư
मैं इंजीनियर बनना चाहता हूँ
मैं इंजीनियर बनना चाहती हूँ
Tôi muốn học ở trường đại học.
मैं विश्वविद्यालय में पढ़ना चाहता हूँ.
मैं विश्वविद्यालय में पढ़ना चाहती हूँ.
Tôi là thực tập sinh.
मैं एक शिक्षार्थी हूँ.
मैं एक शिक्षार्थी हूँ.
Tôi không kiếm được nhiều tiền.
मैं ज्यादा नहीं कमाता हूँ.
मैं ज्यादा नहीं कमाती हूँ.
Tôi làm thực tập ở nước ngoài.
मैं विदेश में प्रशिक्षण ले रहा हूँ.
मैं विदेश में प्रशिक्षण ले रही हूँ.
Đây là người lãnh đạo của tôi.
वह मेरे साहब हैं.
वह मेरे साहब हैं.
Tôi có bạn đồng nghiệp tốt.
मेरे सहकर्मी अच्छे हैं.
मेरे सहकर्मी अच्छे हैं.
Chúng tôi buổi trưa nào cũng đi căng tin.
दोपहर को हम हमेशा भोजन गृह जाते हैं.
दोपहर को हम हमेशा भोजन गृह जाते हैं.
Tôi tìm một chỗ làm.
मैं नौकरी ढूंढ रहा हूँ.
मैं नौकरी ढूंढ रही हूँ.
Tôi thất nghiệp một năm rồi.
मैं पिछले एक वर्ष से बेरोजगार हूँ.
मैं पिछले एक वर्ष से बेरोजगार हूँ.
Ở nước này có nhiều người thất nghiệp quá.
इस देश में बहुत ज्यादा बेरोजगार लोग हैं.
इस देश में बहुत ज्यादा बेरोजगार लोग हैं.
Hãy vào trang này, bạn sẽ tìm thấy quyển sách và những bài đọc kèm theo. Tôi nhắc lại www.book2.ge